महिम् न पारन्ते परम विदुषो यत्य सदृशी स्तुतिर्ब्रह्मादीनामपि तदवसन्नास्त्वयि गिरः अथा वाचः सर्व स्वमतिपरिणामावधि गृणन् ममापेश स्तोत्रे हर निरपवाद परिकरः अतीतः पन्थानं तव च महिमा वां मनसयो रतद्दव्यावृत्यायं चकितमभिधत्ते श्रुतिरपि सकस्य स्तोतव्य कतिविधगुण कस्य विषयः पदे त्वर्वाचीने पतति न मनः कस्य न वचः मधुस्फीता वाच परममृतं निर्मितवत स्तव ब्रह्मन् किं वागपि सुरगुरोर्विस्मयपदम् मम त्वेतां वाणीं गुणकथनपुण्येन भवतः पुनामीत्यर्थेऽस्मिन् पुरमथनबुद्धिर्व्यवसिता तवैश्वर्यं यत्तज्जगदुदयरक्षाप्रलयकृत् त्रयी वस्तुभ्यस्तं तिसृषु गुणभिन्नासु तनुषु भव्यानामस्मिन् वरद रमणीयामरमणीं विहन्तुं व्याक्रोशीं विदधत इहैके चढ़धियः किमीह किंकायस्य खलु किमुपाय त्रिभुवनम् इमाधारो धाता सृजति किमुपादान इति च अतर्क्यैश्वर्यै त्वय नवसर दुस्थो हत धियः कुतर्कोऽयं कांक्षिन्मुखर्यति मोहाय जगतः अजन्मानो लोका किमवयववन्तोऽपि जगताम् अधिष्ठातारं किं भवविधिरनादृत्य भवति अनीशो वा कुर्याद्भुवनजननेक परिकरो यतो मन्दा स्वां प्रत्यमरवरसंशेरतये मे त्रयी साङ्ख्यं योगः पशुपतिमतं वैष्णवमिति प्रभिन्ने प्रस्थाने परमिदमदपथ्यमिति च रुचीनां वैचित्र्यादृजुकुटिलनालापथजुषां नृणामेको गम्यस्त्वमसि पयसामर्णव इव महोक्षखट्वाङ्गं परशुरजिनं भस्मफणिनः कपालं चेति यत्तव वरदतन्त्रोपकरणम् सुरास्तां तां वृद्धिं दधति तु भवद्दुःप्रणीता न हि स्वात्मा रामं विषयमृगतृष्णा भ्रमयति ध्रुवं कश्चित् सर्वं सकलमपरस्त्वध्रुवमिदम् परो द्रव्याद्रव्ये जगति गदति व्यस्तविषये समस्तेऽप्येतस्मिन् पुरमथनतैर्विस्मित इव स्तुवै जिह्रेमि त्वान्न खलु ननु दृष्टा मुखरता तवैश्वर्यं यत्नाद्यदुपरि विरञ्चिर्हरिरथः परिच्छेत्तुं यातावनलमनलस्कन्धवपुषः ततो भक्तिश्रद्धाभरगुरुगृणध्यां गिरिशयत् स्वयं तस्थेताभ्यां तव किमनुवृत्तिर्न फलति अयत्नादापाद्य त्रिभुवनमवैरव्यतिकरम् दशास्यो यद्बाहून भृतरणकण्डो परवशान् इरः पद्मश्रेणीरचितचरणाम्भोरुहबले स्थिरायास्त्वद्भक्ते स्त्रिपुरहर विस्फूर्जितमिदम् अमुष्यत्वत्सेवासमतिगतसारं भुजबलं बलात्तैलासे पित्वदधिवसतौ विक्रमयतः अलभ्यापातालेप्यलसचलिताङ्गुष्टशिरसि प्रतिष्ठा त्वय्यासीद्ध्रुवमुपचितो मुह्यति खलः यदृद्धिं सुस्राम्नो वरद परमोच्चैरपि सति अधश्चक्रे बाणः परिजनविधेयस्त्रिभुवनः न तच्चित्रं तस्मिन् वरिवसि तरि त्वच्चरणयोर्न कस्याप्युन्नत्यै भवति शिरसस्त्वय्यवनति अकाण्ड ब्रह्माण्ड क्षयचकित देवासुरकृपा विधेयस्यासीद्यस्त्रिनयन विषं संहृतवतः सकल्माशः कण्ठे तव न कुरुते न श्रियमहो विकारोऽपि श्लाघ्यो भुवन भयभङ्गव्यसनिनः असिद्धाथा नैव क्वचिदपि स देवासुरनरे निवर्तन्ते नित्यं जगति जयिनो यस्य विशिखाः सपश्चन्नीषत्वामितरसुरसाधारणमभूत् स्मर स्मर्तव्यात्मा न हि वशिशुपत्य परिभवः महीपादाघातात् व्रजति सहसा संशयपदम् पदं विष्णोर्भ्राम्यत् भुजपरिहरुण ग्रहगणम् मुहूर्त्योर्दौस्त्यं यात्यनिवृतजटाताडिततटा जगद्रक्षायै त्वं नटसि ननु वामैव विभुता वियद्व्यापी तारागणगुणितफेनोद्गमरुचिः प्रवाहो वाराम्य पृषतलघुदृष्टशिरसिते जगद्वीपाकारं चलति वलयं तेन कृतमिति यनेनैवोन्नेयं धृतमहिमदिव्यं तव वपुः रथद्रोणीयन्ता शतधृतिरगेन्द्रो धनुरथो रथाङ्गे चन्द्रार्कौ रथचरणपाणिशर इति दिधक्षोऽस्ते कोऽयं त्रिपुरतृणमाडम्बरविधिः विधेयैः क्रीडन्त्यो न खलु परतन्त्रा प्रभुधियः हरिस्ते साहस्रं कमलवलिमादाय पदयोः यदेको ने तस्मिन् निजमुदहरन्नेत्रकमलम् गतो भक्तुत्रेक परिणतिमसौ चक्रवपुषा त्रयाणां रक्षायै त्रिपुरहर जागर्ति जगतां रतौ सूक्ते जाग्रत्वमसि फलयोगे क्रतुमतां त्वकर्म प्रत्वस्तं फलति पुरुषाराधनमृते अतस्त्वां सम्प्रेक्ष्य क्रतुषु फलदान प्रतिभुवम् श्रुतौ श्रद्धां बद्ध्वा दृढपरिकर कर्मसुजनः प्रिया दक्षो दक्ष क्रतुपतिरधीशस्तनुभृतां ऋषीणामात्विच्यं चरणदशदस्याः सुरगणाः क्रतुभ्रंशस्त्वत्त क्रतुफलविधानव्यसनिनो दुवङ्कर्तु विदुरमभिचाराय हि मखाः प्रजानाथं नाथ प्रसभमभिकं स्वां दुहितरं गतं रोहित भूतामृरमयिषु मृष्यस्य वपुषा धनुष्पाणिर्यातं दिवमपि सपत्राकृतममुं प्रसन्तन्तेद्यापि त्यजति न मृगव्याधरभसः स्वलावण्याशंसादृतदनुशमन्नाय तृणवत् पुरःप्लुष्टं दृष्ट्वा पुरमथन पुष्पायुधमपि यदि स्त्रैणं देवी यमनिरत देहार्धघटनात् अवैतित्वा मत्था बतवरद मुक्ता युवतयः श्मशानेष्वा क्रीडा स्मरहर पिशाच सहचरास् चिताभस्मालेपः स्रगपि नृकरोटी परिकरः अमङ्गल्यं शीलं तव भवतु नामैवमखिलम् तथापि स्मर्तॄणां वरद परमं मङ्गलमसि मनः प्रत्यक्चित्ते सविधमवधायात्तमरुतः प्रहृष्यत्रुमाण प्रमद सलिलोत्सङ्गितदृशः यदा लोक्याह्लादं हृदयवनिमज्जामृतमये दधत्यन्तस्तत्त्वं किमपि यमिनस्तत् किल भवान् त्वमर्कस्त्वं सोमस्त्वमसि पवनस्त्वं हुतवः त्वमापस्त्वं व्योमत्त्वमुदरणिरात्मा त्वमिति च परिच्छिन्नामेवं त्वयि परिणता बिभ्रतुगिरम् न विद्मस्तत्तत्त्वं वयमिह तु यत्त्वं न भवसि त्रयीं तिस्रो वृत्तिस्त्रिभुवनमथो त्रीणपि सुरा अकाराद्यैर्वर्णैर्स्त्रिभिरभिदधत्तीर्णविकृति तुरीयं ते धाम ध्वनिभिरवरुन्धानमणुभिः समस्तं व्यस्तं त्वां शरणदगृणाद्योमिति पदम् भव शर्वो रुद्र पशुपतिरथोग्र सह महा तथा भीमीशालावितियदभिधानाष्टकमिदम् अमुष्मिन् प्रत्येकं प्रविचरति देवश्रुतिरपि प्रियायास्मै धाम्ने प्रणीत नमस्योऽस्मि भवते नमो निदिष्ठाय प्रियदवदविष्ठाय च नमो नमः प्रोदिष्ठाय स्मरहरमहिष्ठाय च नमः नमो वर्षिष्ठाय त्रिनयनयविष्ठाय च नमो नमः सर्वस्मै ते तदिदमिति सर्वाय च नमः बहलरजसे विश्वोत्पत्तौ भवाय नमो नमः प्रबलतमसे तत्संहारे हराय नमो नमः जनसुखकृते सत्त्वोद्रिक्तौ मृडाय नमो नमः प्रमहसि पदे निस्त्रैगुण्ये शिवाय नमो नमः कृशपरिणति चेत क्लेशवश्यं क्वचेदम् क्वच तव गुणसीमोल्लङ्घिनी शश्वतृप्तिः इति चकितममन्दीकृत्य मां भक्तिराधा वरद चरणयोस्ते वाक्यपुष्पोपहारम् असितगिरिसमं स्यात् कज्जलं सिन्धुपात्रे सुरतरुवरशाखालेखनी पत्रमूर्वी लिखति यदि गृहीत्वा शारदा सर्वकालं तदपि तव गुणानां ईश पारं न याति असुरसुरमुनीन्द्रैरर्चितस्येन्दुमौलैर्ग्रथितगुणमहिम्नो निर्गुणस्येश्वरस्य सकलगणवरिष्ठ पुष्पदन्ताभिधानो रुचिरमलघुवृत्तैः स्तोत्रमेतच्चकार अहर हर नवद्यं दूर्जटे स्तोत्रमेतत् पठति परम भक्त्या शुद्धचित्तः पुमान्या स भवति शिवलोके रुद्रतुल्यस्तथात्रा प्रचुरतरधनायुः पुत्रवान् कीर्तिमांश महेशान्नापरो देवो महिम्नोऽनापरास्तुतिः अघोरान्नापरो मन्त्रो नास्ति तत्त्वं गुरोः परम् दीक्षादानं तपस्तीर्थं ज्ञानं यागादिका प्रिया महिम्न तव पाठस्य कलां नार्हन्ति षोडशी कुसुमदशननामा सर्वगन्धर्वराजा शिशुशशिधरमौलेर्देवदेवस्य दास स गुरुनिजमहिम्नो भ्रष्ट एवास्य रोषा स्तवनमिदमकार्षीद्दिव्यदिव्यं महिम्न सुरवरमुनिपूज्यं स्वर्गमोक्षैकहेतुं पठति यदि मनुष्य प्राञ्जलिर्नान्यचेता व्रजति शिवसमीपं किन्नरै स्तूयमाना स्तवनमिदममोघं पुष्पदन्तप्रणीतम् श्रीपुष्पदन्तमुखपङ्कजनिर्गतेन स्तोत्रेण किल्बिषहरेण हरप्रियेण कण्ठस्थितेन पठितेन समाहितेन सुप्रीणितो भवति भूतपतिर्महेशः आसमाप्तमिदं स्तोत्रम् पुण्यं गन्धर्वभाषितम् अनौपम्यं मनोहारी शिवमीश्वरवर्णनम् तव तत्त्वं न जानामि ईदृशोऽसि महेश्वर यादृशोऽसि महादेव तादृशाय नमो नमः एककालं द्विकालं वा त्रिकालं यः पठे नरः सर्वपापविनिर्मुक्तः शिवलोके महीयते इत्येषा वाङ्मयी पूजा श्रीमच्छङ्करपादयोः अर्पिता तेन देवेश प्रीयतां मे सदाशिवः श्रीपुष्पदन्तविरचितं श्रीशिवमहिम्नस्तोत्रं सम्पूर्णम् ॐ नमः शिवाय ॐ नमः शिवाय ॐ नमः शिवाय।